अथ श्रीनृसिंहकवचम् उग्रवीरं महाविष्णुज्वलन्तं सर्वतोमुखं नृसिंहं भीषणं भद्रं मृत्योर्मृत्युन्नमाम्यहम् नृसिंहकवचं वक्षे प्रह्लादेनोदितं पुरा सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं सर्वसंपत्करै चैव स्वर्गमोक्षप्रदायकं ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं विवृतास्यन्त्रिनयनं शरदिन्दुसमप्रभं लक्ष्म्यालिङ्गितवामाङ्गौ विभूतिभिरुपाश्रितं चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् सरोजशोभितोरस्कं रत्नकेयूरमुद्रितं तप्तकाञ्चनसङ्काशं पीतनिर्मलवाससं इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः गरुत्मता च विनयात् स्तूयमानं मुदान्वितं स्वरुतकमलसंवासं कृत्वा तु कवचं पठेत् नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः सर्वगोपिस्तम्भवासः फालं मे रक्षतु ध्वनिं नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः स्मृतिं मे पातु नृहरिर्मुनिर्वर्यस्तुतिप्रियः नासं मे सिंहनासास्तु मुखल्लक्ष्मीमुखप्रियः सर्वविद्याधिपः पातु नृसिंहो रसनां मम वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरणान्तकृत् दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ करौ मे देववरदो नृसिंहः पातु सर्वतः हृदययोगिसाध्यश्च निवासं पातु मे हरिः मध्यं पातु हिरण्याक्षवक्षः कुक्षिविदारणः नाभिं पातु मे नृहरिस्वनाभिर्ब्रह्मसंस्तुतः ब्रह्माण्डकोटयः कट्याय यस्यासौ पातु मे कटिं गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् उरूमनोभवः पातु जानुनी नररूपदृक् जङ्घे पातु धराभारहर्तायोऽसौ नृकेसरी सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम्। महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः। महाविष्णुर्दक्षिणेतु महाज्वालस्तु नैऋतौ। पश्चिमे पातु सर्वेषु दिशि मे सर्वतो मुखः। नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः। ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः। संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी। इदं नृसिंहकवचं प्रह्लादमुखमण्डितं भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते। पुत्रवान् धनवान् लोके दीर्घायुरुपजायते। यय्यं कामयते कामन्तं तं प्राप्नोत्यसंशयम्। सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत्। भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम्। वृश्चिकोरगसम्भूतविषापहरणं परं ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम्। भूर्जे वा तालपत्रे वा कवचल्लिखितं शुभं करमूले धृतयेन सिद्ध्येयुः कर्मसिद्धयः। देवासुरमनुष्येषु स्वं स्वमेव जयल्लभेत्। एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः। सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति। द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मना नृणाम्। कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते। अनेन मन्त्रराजेन कृत्वा भस्माविमन्त्रणम्। तिलकौ विन्यसेद्यस्तु तस्य ग्रहभयं हरेत्। त्रिवारै जपमानस्तु दत्तौ वार्यभिमन्त्र्य च। प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत्। तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः। किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत्। मनसा चिन्तितैयत्तु स तच्चाप्नोत्यसंशयम्। गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं रसन्तं। गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तं। क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं। वीक्षन्तं गूर्णयन्तं शरणिकरशतैर्दिव्यसिंहं नमामि। इति श्री ब्रह्मांड पुराणे प्रह्लादोक्तं श्री नृसिंह कवचं सम्